एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रपतिना विद्यादेवी भण्डारिणा नेपालस्य संविधानस्य 67तम्याः धारायाः द्वितीयो पधारायाः अनुसारेण द्वयोः द्व्यधिकानां वा दलानां समर्थनेन बहुमत प्राप्तये समर्था प्रतिनिधिसभा सदस्यः प्रधानमन्त्रिणे स्वप्रामाण्यं प्रस्तोतुम् आहूतो वर्तते। अस्यैव वैशाखस्य त्रिंशे दिवसे रात्रौ नववादनस्य अभ्यन्तरे प्रतिनिधिसभायां विहित प्रतिनिधित्वानां दलानां समर्थनेन प्रधानमन्त्रिणे नियुक्ताये राष्ट्रपतेः समक्षं स्वस्य प्रामाण्यं प्रस्तोतुम् आहूतमस्ति इति राष्ट्रपतेः कार्यालयस्य सहायक प्रवक्त्रा केशवप्रसाद घिमिरे विधेन विज्ञप्तेर्माध्यमेन ज्ञापितमस्ति। तत्पूर्वं नेपालस्य संविधानस्य 67तम्याः धारायाः द्वितीयोपधारायाः अनुसारेण 74+2000 विक्रमाब्दस्य फाल्गुन मासस्य तृतीय दिवसे नियुक्तेन प्रधानमन्त्रिणा केपी शर्मा ओलिना 100तम्याः धारायाः प्रथमोपधारायाः अनुसारेण प्रतिनिधिसभायां विश्वासस्य मतस्य कृते ह्यः प्रस्तुतः प्रस्ताव तृतीयोपधारायाः अनुसारेण न पारिता इति विषयः सभामुखेन अग्निप्रसाद सापकोटा विधेन राष्ट्रपतेः समक्षं प्रस्तुतः आसीत्। राष्ट्रपतिना भण्डारिणा अपर मन्त्रिपरिषदः असंघटनं यावत् नेपालस्य संविधानस्य 77तम्याः धारायाः तृतीयोपधारायाः अनुसारेण प्रधानमन्त्रिणः ओलिनो नेतृत्वस्य मन्त्रिपरिषद कार्यसञ्चालनाय निर्धारिता वर्तते। तत्पूर्वं प्रधानमन्त्रिणा केपी शर्मा ओलिना प्रतिनिधिसभायाः उपवेशे प्रस्तुतः विश्वासस्ति इति विषयकः प्रस्तावः स्वीकृतः आसीत्। प्रतिनिधिसभायाः गतदिवसीये द्वितीयोपवेशे प्रधानमन्त्रिणा ओलिना प्रस्तुतं प्रस्तावम् आदृत्य विहिते मतविभाजने पक्षे 93, विपक्षे 24, न भवतीति पक्षे च 15 मतानि व्यक्तानि आसन्। उपवेशे सभामुख अग्निप्रसाद सापकोटा विश्वासस्य मताय आवश्यक बहुमतस्य अप्राप्तेः कारणात् प्रस्ताव अस्वीकृत इति उदघोषयत्। उपवेशे 32+2 सांसदाः उपस्थिता इति सभामुखेन सापकोटा विधेन ज्ञापितम्। अत्रान्तरे राष्ट्रपतिना भण्डारिणा अपर मन्त्रिपरिषदः असंघटनं यावत् नेपालस्य संविधानस्य 77तम्याः धारायाः तृतीयोपधारायाः अनुसारेण प्रधानमन्त्रिणः ओलिनो नेतृत्वस्य मन्त्रिपरिषद कार्यसञ्चालनाय निर्धारिता वर्तते। तत्पूर्वं प्रधानमन्त्रिणा केपी शर्मा ओलिना प्रतिनिधिसभायाः उपवेशे प्रस्तुतः विश्वासस्ति इति विषयकः प्रस्तावः स्वीकृतः आसीत्। प्रतिनिधिसभायाः गतदिवसीये द्वितीयोपवेशे प्रधानमन्त्रिणा ओलिना प्रस्तुतं प्रस्तावम् आदृत्य विहिते मतविभाजने पक्षे 93, विपक्षे 24+ न भवतीति पक्षे च 15 मतानि व्यक्तानि आसन्। उपवेशे सभामुख अग्निप्रसाद सापकोटा विश्वासस्य मताय आवश्यक बहुमतस्य अप्राप्तेः कारणात् प्रस्ताव अस्वीकृत इति उदघोषयत्। उपवेशे 32+2 सांसदाः उपस्थिता इति सभामुखेन सापकोटा विधेन ज्ञापितम्। एमाले संसदीय दलस्य निर्देशनम् अवज्ञाय एमाले दलस्यैव वरिष्ठ नेत्रोः झलनाथ खनाल माधव कुमार नेपालयोः समूहस्य सांसदानां मतदाने अनुपस्थितेः कारणात् विश्वासस्य मतस्य पक्षे अल्पमतं व्यक्तमासीत्। प्रस्तावस्य विपक्षे प्रमुख प्रतिपक्षिणा नेपाली कांग्रेस दलेन, प्रतिपक्षिणा नेकपा माओवादी केन्द्रेण च मतदानं विहितम् आसीत्। जनता समाजवादी दलस्य कतिचित् सांसदाः तटस्थाः अवसन्, केचन च विपक्षे मतदानम् अकुर्वन्। प्रतिनिधिसभायाः अपरोपवेश अस्यैव वैशाखस्य 30 दिवसे दिवा एकवादने वस्ता। विश्वासस्य मतस्य ग्रहण सम्बद्धस्य प्रधानमन्त्रिणः केपी शर्मा ओलिनः प्रस्तावस्य ह्यः संसदा अस्वीकरणस्य अनुपदमेव विपक्षिदलत्रयस्य नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देवा विधेन, नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन, जसपा नाम्नो जनता समाजवादी दल नेपालस्य अध्यक्षेण उपेन्द्र यादवेन च गतदिने संयुक्त विज्ञप्तिं प्रकाश्य बहुमतस्य सर्वकारस्य संघटनाय राष्ट्रपतेः विद्यादेवी भण्डारिणः समक्ष अनुरुद्धमासीत्। प्रधानमन्त्रिणा केपी शर्मा ओलिना संवादस्य सहमतेः एकतायाः आधारेण देशस्य अग्रे वर्धापनस्य अभियाने ऐक्यबद्धतायै आहूतं वर्तते। प्रधानमन्त्री ओली आत्मनि प्रतिनिधिसभाया विश्वासोस्तीति प्रस्तावे सदने उत्थापितान् प्रश्नान् उत्तरयन् अध्यादेशः राष्ट्रस्य कतिपय संरचनाः गतिशीलाः विधातुं सांवैधानिक व्यवस्थायाः अनुसारेणैव आनीताः इति समस्पष्टयत्। प्रधानमन्त्री ओली विकल्प प्रस्तुतिं विना केवलं विरोधनस्य परम्परां समापयितुं स्थायित्वाय अध्यात्मना विश्वासस्य मतं याचितमिति अवोचत। जनतायाः याचनायाः आधारेण संविधानं संशोध्यते इति चर्चयन् प्रधानमन्त्री ओली अवोचत् परं संविधानस्य अतिक्रान्ते कार्यं कुत्रापि केनापि न कर्तव्यम्। तत्पूर्वं प्रतिनिधिसभायाः ह्यस्तनोपवेशे आत्मनि प्रतिनिधिसभायाः विश्वासस्य स्थितिं स्पष्टीकर्तुं विश्वासस्य मतस्य प्रस्तावं प्रस्तुवन् प्रधानमन्त्री ओली अगदत् कोविड 19 निरोधनस्य उपचारस्य आवश्यकतायाः अनुसारेण संक्रमण निवारणस्य च कार्याणि प्रभावकारी रूपेण अग्रे वर्धाप्यमानानि सन्ति। प्रधानमन्त्री ओली देशस्य कोरोना महामार्या आक्रान्तेः अवस्थायां विचाराणां भिन्नतां संस्थागत भिन्नतां च स्थगयित्वा कोविड विरुद्धे ऐक्यबद्धतायै सर्वकारं सहयोक्तुं सर्वान् पक्षान् आह्वयत। प्रधानमन्त्री ओली कोरोना महामार्याः संयुक्त संकटे केनापि भ्रष्टाचरणं क्रियते चेत् तथाविधापराधः क्षम्यो न भवतीति भाषमाणः तादृशाः व्यक्तयः सर्वकारेण दण्यन्ते एवेति प्रतिबद्धतां व्यक्तवान्। प्रधानमन्त्री ओली सर्वान् सांसदान् आत्मने विश्वासस्य मतं याचमानः आत्मनि सांसदानं विश्वासोऽस्तीति स्पुष्टि अनेन सदनेन कुर्यादिति अवोचत। विश्वासस्य मतं ग्रहीतुं प्रधानमन्त्रिणा ओलिना प्रस्तुतस्य प्रस्तावस्य विमर्शने प्रमुख प्रतिपक्षिणो नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा प्रधानमन्त्रिणा केपी शर्मा ओलिनः सर्वकारः असफलो जातः इति आरोपयत। उपवेशे नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड अगदत् वर्तमानावस्थायां प्रधानमन्त्रिणा ओलिना विश्वासस्य मतस्य ग्रहणापेक्षया त्यागपत्रं प्रदाय नूतन सर्वकारस्य संघटनाय मार्गः प्रशस्ति कर्तव्य। अध्यक्ष प्रचण्डः प्रधानमन्त्रिणा ओलिना स्वयमेव विघटितायां संसदि विश्वासस्य मतं याच्यमानम् अस्ति अवसरे प्राप्ते पुनः विघटनस्य चिन्तने च प्रधानमन्त्री अस्तीति आरोपयत। विश्वासस्य मतस्य प्रस्तावस्य विमर्शने जनता समाजवादी नेपाल दलस्य अध्यक्ष महन्त ठाकुरः आत्मना विश्वासस्य मतस्य पक्षे विपक्षे वा कुत्रापि न स्थितम् प्रतिनिधिसभाया ह्यस्तनोपवेशे मतदान प्रक्रियायां सहभागिताये कोरोना विषाणुना संक्रान्तेभ्य 30 सांसदेभ्य पटवेश्मन व्यवस्था विहिता आसीत्। अद्य आराष्टं मातरं प्रति श्रद्धा भक्ति प्रकटन पुरस्सरं मातृ अमावास्या सम्मान्यते। मातरं प्रति कृतज्ञतां प्रकटयितुम् अद्य समातृकाः सन्ततयः सम्मान मर्यादादयो प्रकटन पुरस्सरं फलपुष्प मिष्ठान्नानि भोजयित्वा मात्रे यथाशक्ति वस्त्राभूषणानि च ददति इति समाचारः।